सर्वेभ्यो नमः। अस्तु भगिनि। हा,
जगति अनेकानि वस्तूनि सन्ति, पर्वताः, नद्यः, गृहाणि, मनुष्याः, इतरे प्राणिनः, वनानि, नगराणि इत्यादीनि। तेषां ज्ञानेन बुद्धिः विशदा विचारसमर्था भवति, परन्तु ते अनन्ताः, अनेकविधाश्च। अतः सर्वेषां सर्वेविधानां ज्ञानं दुःशकम्।
तावत्पर्यन्तं भगिनि, तावत्पर्यन्तं किञ्चित् विवृणोतु तत्र किम् अस्ति इति।
एतस्मिन् जगति अनेकानि वस्तूनि सन्ति, उदाहरणार्थ नद्यः, गृहाणि, नगराणि, वृक्षाः, मनुष्याः। तेषां ज्ञानेन अस्माकं बुद्धि विशदाः स्पष्टाः भवति। वयं विचारं कर्तुं समर्थाः भवामः, परन्तु वस्तूनि अनेकानि सन्ति, तेषाम् अभ्यासं कर्तुम् अशक्यः अस्ति। तत्कृते
अनन्ताः अनेकविधाश्च इति अस्ति, तत्र
अनेकविधाः अनेकप्रकाराः अस्ति।
हा, प्रकाराः तत्र
अनेकप्रकाराः
भिन्नम् अस्ति, वनं भिन्नम् अस्ति। हा, तत्र नगराणि अपि अनेकानि सन्ति, वनानि अपि अनेकानि सन्ति, अनेकप्रकाराः च सन्ति। अस्तु, समीचीनम्। अग्रे, अतः
किञ्चन वस्तु यत् बहुषु
सर्वेषां
सर्वविधानां ज्ञानं दुःशकम्।
हा, नाम दुःशकं नाम
अशक्यम्।
हा, अशक्यं, तत्र सर्वं ज्ञातुं वयं न शक्नुमः इति। समीचीनं भगिनि, धन्यवादः, धन्यवादः, समीचीनम्। अस्तु, अग्रे तत्र हरि महोदय अग्रे पठितुम् इच्छति वा?
अतः किञ्चन वस्तु यद् बहुषु वर्तते तदाधाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः, यथा तत्र द्विधा विभजितमस्ति, गुणः अनन्तरं द्रव्यं। पृथिवी इति अस्ति, तस्याः गुणः गन्धः जलं, जलस्य गुणः शैत्यं, तेजः, तेजसः गुणम् औष्ण्यं, वायुः, वायोः गुणः स्पर्शः, आकाशः, आकाशस्य गुणः शब्दः, कालः, कालस्य गुणः सङ्ख्या, दिक् तस्याः गुणः सङ्ख्या, आत्मा, तस्य गुणः ज्ञानं, मनः, मनसः गुणः सङ्ख्या इति लिखितमस्ति।
सत्यमिखिनं, तत्र अधोभागे यदस्ति तदस्ति द्रव्यम्, उपरि यदस्ति सः कः? गुणः। हा, समीचीनं महोदय, अस्तु। अतः तत्र नवद्रव्याणि दर्शितानि सन्ति, तत्र पृथ्वी, जलं, तेजः, वायुः, तदनन्तरम् आकाशः, कालः, दिक्, आत्मा, मनः। तत्र अग्रे गत्वा तत्र तयोः मध्ये भेदः अस्ति इति अपि तत्र पश्यामः। तत्र आकाशः इति नित्यद्रव्यं, कालः इति नित्यद्रव्यम् इति तत्र अग्रे भवति। अस्तु, किन्तु तत्र तत्रापि विभागः अग्रे भवति। अस्तु, अग्रिमवाक्यत्रयं तावत् पठतु महोदय।
एतानि नववस्तूनि गृह्णीमः, तेषु सर्वत्र कश्चित् गुणः पुरुषसङ्ख्या द्विसप्ततिः मध्ये अस्ति, अवश्यं वर्तते। गुणः इति वस्तु पृथिव्यां जले तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः।
तावत्पर्यन्तं महोदय, तावत्पर्यन्तं। हा,
अत्र नवानि वस्तूनि स्वीकुर्मः वयम्। अत्र नववस्तूनि इत्युक्ते किमस्ति, तत्र पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति नववस्तूनि स्वीकुर्मः। तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते, गुणः अस्ति इति लिखितमस्ति। गुणः इति वस्तु पृथिव्यां जले तेजसि इति सर्वेषु वस्तुषु अपि वर्तते एव. अतः तत्र यदि गुणः अनुगतं वस्तु अथवा पदार्थः
तत्र गुणः अस्ति कृत्वा अतः वस्तु लभ्यते तत्र अस्मिन् तत्र वस्तु अस्ति तस्मिन् तत्र गुणः अस्ति तादृशपदार्थः. अत्र वस्तु इति एतावत् लिखितं किन्तु तत्र
पदार्थः इति
हा तत्र वस्तु इति साधारणलौकिकपदमस्ति किन्तु न्यायशास्त्रे वयं वस्तु इति पदस्य उपयोगं न कुर्मः न्यायशास्त्रे पदार्थः इति एव वदामः वस्तु इति वस्तु इति न वदामः पदार्थः इति अस्ति. अतः एव तत्र पूर्वस्मिन् पुटे अपि तत्र परन्तु ते अनन्ताः इति आसीत् तत्र यत् तत्र प्रथमभगिनी पठितवती तत्र परन्तु ते अनन्ताः अनेकविधाश्च तत्र वस्तूनि इति लिखितमासीत् पूर्वं किन्तु अनन्ताः इति अस्ति अनन्तः यतो यतोहि तत्र न्यायशास्त्रे वस्तूनि इति न वदामः पदार्थाः इति वदामः अतः तत्र ते अनन्ताः पदार्थाः अनेकविधाश्च पदार्थाः इति भवति अतः तत्र पदार्थः. इदानीं तत्र नवपदार्थाः सन्ति अत्र नवपदार्थाः तत्र द्रव्याणि नवद्रव्याणि इति आगतम्. अस्तु महोदय धन्यवादः.
अत्र श्रीमन् हरि ओम्
नमस्कारः भगिनि वदतु.
नमस्कारः. इत्युक्ते गुणसहितद्रव्यं पदार्थम् इति वक्तुं शक्नुमः
किं भगिनि?
गुण श्रूयते वा?
श्रूयते श्रूयते भगिनि.
गुणसहितद्रव्यम् इति वयं यत् वदामः तत् पदार्थम् इति वक्तुं शक्नुमः.
यस्मिन् पदार्थे गुणः अस्ति सः सः पदार्थः द्रव्यम् इति नामकरणं
तथा चिन्तने
तत्र गुणः कः इति तस्य लक्षणम् अपि तत्र तद् किमस्ति इति पश्यामः. किन्तु अत्र गुणः नाम तत्र गन्धः शैत्यम् औष्ण्यं लौकिकरूपेण इदानीं स्वीकुर्मः किन्तु तत्र पारिभाषिक अर्थः लक्षणं तत्सर्वम् अग्रे कुर्मः. किन्तु औष्ण्यं वा स्पर्शः वा शब्दः सङ्ख्या इति लौकिकार्थे इदानीं स्वीकुर्मः.
पदार्थः इति शब्दस्य अर्थः द्रव्यमेव पदार्थम् इति वक्तुं शक्नुमः.
केवलं द्रव्यम् इति यस्मिन् पदार्थे गुणः अस्ति सः पदार्थस्य तस्य पदार्थस्य नाम अस्ति द्रव्यम् इति. हा हा अग्रे एव पश्यामः तत्र पदार्थः के इति. अस्तु समीचीनं भगिनि. अस्तु अग्रे तत्र
महोदय एका शङ्का अस्ति प्रताप वदामि. अत्र पृष्ठभाग 72 दृश्यते तस्य सन्दर्भः कुत्र वर्तते?
अग्रे पश्यामः महोदय. इदानीं तत्र किं सोपानेन गच्छामः इदानीं तत्र अग्रे किं भवति इति तस्मिन् विषये बहु किमपि अस्ति. इदानीं तत्र क्लेशः मास्तु सरलरीत्या इदानीम् अवगच्छामः. अग्रे
कस्य पुस्तकस्य?
अस्मिन् एव पुस्तके महोदय.
विद्याधरी एव वा
किं महोदय?
विद्याधरी पुस्तकस्य सन्दर्भः?
विद्याधरी पुस्तकस्य एव. हा यतोहि तत्र तर्कसङ्ग्रहस्य पुस्तकरूपेण तत्र तत्र पुटसङ्ख्या इति न वक्तुं शक्नुमः महोदय. यतोहि तत्र तत्तु हस्तप्रति एव आसीत् खलु. अस्तु विमला भगिनी.
अस्तु महोदय प्रश्नः अस्ति यदि यदि गुणम् अस्ति तदा एव पदार्थस्य नाम द्रव्यमिति. जगति किञ्चन वस्तु अस्ति किं यस्मिन् गुणः नास्ति?
अग्रे पश्यामः. अग्रे पश्यामः नाम इदानीं तत्र लौकिकरूपेण गुणः एषः इति स्वीकुर्मः. अग्रे गुणः साक्षात् गुणः कः तस्य लक्षणं किम् इति अग्रे पश्यामः भगिनि. किन्तु भवति तत्र गुणरहित तत्र यस् पदार्थाः सन्ति येषु तत्र गुणः नास्ति इति पश्यामः.
धन्यवादः.
एक उदाहरणार्थं अग्रे पश्यामः भगिनि. हा अस्तु अस्तु तर्हि तत्र हा अग्रे तत्र हा अनघा भगिनी तत्र भवती पठितुम् इच्छति वा?
आम् अतः समादाय एते नवपदार्थाः द्रव्यम् इति संज्ञां लभन्ते तथा च कञ्चन विशेषमादाय सह विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः अतः तम् आदाय सर्व नवपदार्थाः द्रव्यम् इति संज्ञा लभन्ते
हा तत्र तम् आदाय नाम गुणमादाय
गुणमादाय
इति किञ्चित् पदं जानाति वा आदाय इति कीदृशपदम् इति
ददाति आदाय
हा उपसर्ग अस्ति हा उपसर्ग अस्ति हा किन्तु तत्र ददाति इति तत्र गिव् इति अस्ति किन्तु आदाय नाम स्वीकरोति इति अर्थः
स्वीकरोति
गुणः अस्ति इति स्वीकृत्य नवपदार्थानां तत्र नामकरणं द्रव्यम् इति कृतम्
तथा न कञ्चन विशेषम् आदाय सः विशेषः येषु वर्तते तेषाम् ऐ एम् नाट् अण्डर्स्टाण्डिङ्ग् द मीनिङ्ग्
तथा नाम यथा वयं गुणम् अस्ति गुणम् इति कश्चन विशेषगुणम् अस्ति इति स्वीकृत्य पदार्थानां नाम नामकरणं कृतवन्तः द्रव्यम् इति खलु पूर्वस्मिन् पुटे तदेव वयं तत्र चित्ररूपेण दर्शितमस्ति खलु भगिनि तत्र पृथ्वी मध्ये गन्धः इति एकः गुणः अस्ति इति इदानीं तत्र गन्धः कः इति इदानीं मास्तु केवलं गन्धः इति एकः गुणः अस्ति इति स्वीकुर्मः किन्तु पृथिव्यां गन्धः अस्ति इति स्वीकृत्य पृथ्वी द्रव्यम् इति नामकरणं जातं कृतं संज्ञां लभन्ते तथा नाम तथैव हा इन् द सेम् वे तथैव तथा च कञ्चन विशेषम् आदाय तत्र यस्मिन् पदार्थे विशेषम् इदानीं केवलं गुणमिति न किमपि विशेषम् अस्ति चेत् तं विशेषम् आदाय नाम स्वीकृत्य हा सः विशेषः येषु पदार्थेषु वर्तते तेषाम् अग्रे किं पदं भवति तेषाम्
एकां संज्ञां कृत्वा
इदानीं पदार्थ तत् पदं नास्ति येषु पदार्थेषु वर्तते तेषां पदार्थानां एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः नाम एकं विशेषं एकस्मिन् पदार्थे अस्ति इति कृत्वा सः विशेषः यदि येषु पदार्थेषु वर्तते तेषां पदार्थानां नामकरणं तत्र यतोहि तत्र तेषां बोधनाय आचार्यैः यत्नः कृतः पूर्वं यथा तत्र पृथ्वी इति नामकरणं तत्र गन्धः येषु वर्तते तेषां नामकरणं तेषां पदार्थानां नाम अस्ति पृथ्वी इति अग्रे भवति अस्तु समीचीनं भगिनि धन्यवादः विमला भगिनी प्रश्नः अस्ति इति
भवता तदुक्तं महोदय अद्य प्रश्नः नास्ति
अस्तु समीचीनम् अस्तु तर्हि अस्तु अग्रे तत्र हा सुधा भगिनी पठितुम् अग्रे पठितुम् इच्छति वा
अस्तु महोदय नमस्कारः
नमस्कारः भगिनि
तत्र यः विशेषः गृहीतः सः बहुषु भवेत् एकस्मिन् वा भवेत् बहुषु भवति चेत् बहूनां सा संज्ञा यथा पृथिवी द्रव्यमिति उच्यते जलमपि द्रव्यम्
हा तावत्पर्यन्तं तत्र हा विशेषः एकमेकं वाक्यं स्वीकृत्य
तत्र अस्माकं विषयः अस्ति गुणः सः
गुणः इति नास्ति विशेषः उदाहरणे गुणः इति अस्ति किन्तु विशेषः कश्चित् विशेषः अस्ति
तत्र यः विशेषः अस्ति तत् गृहीत्वा बहुषु भवेत् आर् एकस्मिन् वा भवेत् बहुषु
परीक्षां कुर्मः इति प्रथमतया पश्यामः तत्र बहुषु भवति वा अथवा केवलम् एकस्मिन् एव भवति वा इति पश्यामः हा इदानीं बहुषु भवति चेत् किं कुर्मः
बहुषु भवति चेत् बहूनां संज्ञा दत्तम् अथवा
बहूनाम् इत्युक्ते कां केषां
पदार्थानां
हा बहूनां पदार्थानां सा संज्ञा तत्र पृथ्वी इति यदि गुणः इति गुणः तत्र गन्धः इति गुणः भवति चेत् तत्र संज्ञा भवति पृथ्वी
पृथ्वी
गन्धः बहुषु पदार्थेषु वर्तते इति कृत्वा बहूनां पदार्थानां पृथ्वी इति संज्ञा
भवति जलमपि द्रव्यं जलमपि एकं द्रव्यम् अस्ति
यतोहि पुनः तत्र बहुषु वर्तते वा अथवा एकस्मिन्नेव वर्तते वा तत्र गुणः विशेषः तत्र जलम् इति पदार्थे विशेषः कः अस्ति यत् उक्तमस्ति तत्र लिखितमस्ति तत्र जलस्य उपरि किं
जलस्य उपरि अस्ति शैत्यं
हा शैत्यम् इति तत्र तत्र बहुत्र वर्तते खलु शैत्यम् अतः तत्र एतदपि जलमपि उदाहरणम् इति स्वीकर्तुं शक्नुमः जलस्य अपि संज्ञा अस्ति संज्ञा का जलस्य संज्ञा का
जलस्य संज्ञा अस्ति
संज्ञा नाम नामकरणं किं नाम द्रव्यस्य नाम किम् अभवत् इदानीं जलस्य
जलस्य अपि द्रव्यमेव
हा द्रव्यम् इति नामकरणं जातं समीचीनं समीचीनं भगिनि धन्यवादः
धन्यवादः
अग्रे धन्यवादः भगिनि अग्रे तत्र एतावत् अहमेव उक्तवान् किन्तु ये पठितुम् इच्छन्ति तत्र कृपया तत्र रेस् हेण्ड् करोतु अथवा सूचयतु शैलजा भगिनी पठितुम् इच्छति वा अस्तु शैलजा भगिनी पठति
सङ्ग्रहादिग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ विधायैव
कृतः पूर्वस्मिन् परिच्छेदे अर्धभागमेव कृतं तत्र समवायत्वम् इति
समवायत्वम् इति पदार्थः एकस्मिन्नेव वर्तते अतः एकस्यैव समवाय इति संज्ञा भवति अतश्च अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं सुशकं भवति समवाय इति संज्ञा अस्ति तत्र तस्मिन् गुण तः सः गुणः एकस्मिन् पदार्थे एव इदानीं विशेषः समवायः इति विशेषः एकस्मिन् एव वर्तते पदार्थे अतः तस्य संज्ञा अस्ति समवायत्वम् इति समवायः इति अस्ति तस्य गुणः अस्ति समवायत्वम् संज्ञा अस्ति समवायः
तस्य विशेषः अस्ति समवायत्वं
विशेषः अस्ति समवायत्वं संज्ञा अस्ति समवायः इति इदानीं समवायः अनन्तरं अनेकेषु पदेषु विशेषः सन्ति तादृशः अस्ति इति सर्वं मनसि निधाय इदानीं विचारः क्रियते चेत् सर्वेषां पदार्थानां निरूपणं सुलभं भवति सुशकं भवति
हा इदानीं तत्र उपायः कः पुनः वदतु उपायः कः इदानीं
इदानीं विशेषः एकस्मिन् पदे अस्ति वा नो चेत् बहुषु पदार्थेषु वर्तते वा इति तत्र विचारणीयं
हा तत्र विशेषः कः
विशेषः एकस्मिन् पदार्थे एव वर्तते वा अनेकेषु पदार्थेषु वर्तन्ते वा इति
हा समीचीनं भगिनि धन्यवादः हा अस्तु अग्रिम तत्र पङ्क्ति अपि पठतु तत्र
सङ्ग्रहादिग्रन्थेषु सप्तपदार्थः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः तर्कसङ्ग्रहः विद्याधरी एतादृशेषु पुस्तकग्रन्थेषु एवं रीत्या एव तत्र विभागः कृतः एकस्मिन् पदार्थे विशेषः अस्ति वा अनेकेषु अस्ति वा तत्र समवायत्वं वा सर्वम् एतादृशं विचारः एव मनसि निधाय तत्र सप्तपदार्थाः इति पदार्थाः सप्तविधरीत्या विभागः तत्र
विभागं कृतम् अथवा
पूर्वाचारैः कृतः.
अस्तु, तत्र सः इमां रीतिं बुद्धौ इति तत्र तत् किम् अस्ति?
इमां रीतिम् इत्युक्ते पूर्वमेव पूर्वस्मिन् पङ्क्तौ यत् यः उपायः सूचितः एकस्मिन् पदार्थे अस्ति वा विशेषः, अनेकेषु पदार्थेषु अस्ति वा, तस्य विशेषः कः, विशेषः कुत्र वर्तते, एतादृशम् उपायः अस्ति किल, तत्र सः उपायम् अथवा रीतिम् अनुसृत्य एव बुद्धौ तादृशः रीतिम् अनुसृत्य एव विभागः कृतः.
तत्र बुद्धौ निधाय इत्युक्ते
बुद्धौ निधाय इत्युक्ते मनसि तादृशं चिन्तयित्वा,
हा मनसि स्थापयित्वा, तत्र मनसि एतद् अनुसृत्य, हा अथवा मन बुद्धौ मनसि निधाय नाम तत्र समीचीनं भगिनि. हा अस्तु, धन्यवादः, समीचीनम्. अस्तु, विमला भगिनी प्रश्नः अस्ति वा?
आं महोदय, विशेष इत्युक्ते गुणस्य पर्यायशब्दः वा?
न न न न न भगिनि न, तत्र द्रव्यम् इति पारिभाषिकशब्दः
अस्तु,
गुणः अपि पारिभाषिकशब्दः, वस्तु इति तत्र केवलं लौकिकपदम्, विशेषः अपि तत्र केवलम् इदानीम् एतावत् लौकिकपदम् इति स्वीकरोतु, अग्रे विशेषः अपि पारिभाषिकशब्दः भवति. विशेषः अपि एकः पदार्थः भवति अग्रे, किन्तु इदानीं तत्र लौकिकरूपेण एषः पदार्थः विशिष्टः इति, तत्र येल्लो अस्ति, तत्र विशिष्टः पदार्थः इति, तत् अस्मिन् पदार्थे कोऽपि विशेषः अस्ति इति, तावदेव. लौकिकरूपेण इदानीं चिन्तनं केवलं यत्र तत्र एतावत् तत्र पदार्थः गुणः द्रव्यम् इति एव तत्र पारिभाषिकशब्दाः एतावत्.
आं महोदय, धन्यवादः.
हा, समीचीनं भगिनि. अस्तु, अग्रे
एकः प्रश्नः.
हा, दीप्ति भगिनी, नमस्कारः.
नमस्कारः. फस्ट्लि सारी, ऐ वोण्ट् बि वेरि संस्कृत स्पोकन्.
किन्तु भगिनी तत्र प्रयत्नं करणीयमेव, करोतु, किन्तु उत्तरमहं केवलं तत्र संस्कृते एव वदामि.
आम् आम्,
समीचीनं खलु.
समवायत्वम् इति पदार्थः एकस्मिन् एव वर्तते, अतः
इति अस्तु, तत्र तस्य वाक्यस्य अर्थः कः इति वा?
आम् आम् आम्,
अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, तत्र पश्यामः, तत्र अनेके जनाः सन्ति, तेषाम् अवगमनं कथम् अस्ति इति पश्यामः. तत्र कोऽपि उत्तरं वक्तुम् इच्छति वा? किन्तु संस्कृतेन एव वक्तव्यम्. तत्र भवानी भगिनी वक्तुम् इच्छति वा उत्तरम्?
महोदय, समवायत्वम् इति कलेक्षन्,
समवायत्वम् इति एतावत् वयं न जानीमः, केवलं सः एकः पदार्थः इति चिन्तयतु, केवलं तत्र वाक्यस्य अर्थः कः इति वदतु, तावदेव.
अस्तु महोदय,
समानगुणः भवति वा?
न न न, अग्रे पश्यामः, तत्र समवायः इति कः इति अग्रे पश्यामः, इदानीं मास्तु. केवलम् एतावत् समवायः इति को, समवायत्वम् इति कोऽपि विशेषः इति चिन्तयतु भगिनि, भवानी भगिनि, इदानीं वाक्यस्य अर्थः कः इति वदतु.
द्रव्यं इति वर्तते वा न वा इति,
समवायत्वम् इति पदार्थः, तत्र प्रथमतया तत्र तद् वाक्यं पठतु भगिनि एकवारं.
समवायत्वम् इति पदार्थः एकस्मिन्नेव वर्तते, अतः एकस्यैव समवाय इति संज्ञा भवति.
हा, तत्र एकस्मिन् नाम एकस्मिन् पदार्थे एव समवायत्वम् इति कः विशेषः इति एतावत् न जानीमः, किन्तु सः विशेषः एकस्मिन् पदार्थे एव वर्तते, अतः अस्माकम् उपायः यः अस्ति तम् अनुसृत्य एकस्य पदार्थस्य एव समवायः इति नामकरणं भवति, संज्ञा भवति, खलु?
हा
समीचीनं वा? अस्तु, तत्र का पृष्टवती? दीप्ति भगिनी, इदानीं समाधानं प्राप्तं वा? नाम एतावत् तत्र केवलम् उदाहरणत्वेन तत्र उक्तमस्ति भगिनि, नाम अनेकेषु पदार्थेषु भवति चेत् संज्ञां दद्मः, एकस्मिन्नेव पदार्थे अस्ति चेदपि संज्ञां दद्मः, अतः अनेकेषु वर्तते तस्य उदाहरणमस्ति पृथ्वी, यतोहि तस्मिन् गन्धः इति गुणः वर्तते, बहुत्र गन्धः इति गुणः वर्तते, अतः तत्र संज्ञा पृथ्वी इति दत्तम्। अपि तदनन्तरम् एकस्मिन्नेव वर्तते इति तस्यापि उदाहरणम् आवश्यकं खलु, अतः समवायत्वम् इति उदाहरणं स्वीकृतमस्ति, यद्यपि वयम् एतावत् न जानीमः तत्र समवायत्वम् अथवा समवायः कः इति न जानीमः, किन्तु कोऽपि विशेषः अस्ति तत् केवलम् एकस्मिन्नेव भवति, अतः तस्य उदाहरणम् अपि स्थापितं, तावदेव।
धन्यवादः।
हा अस्तु, अस्तु अग्रे तत्र भवानी भगिनी, धन्यवादः भगिनी, अस्तु अन्ये तत्र का
अनुवर्तनं करोमि।
भवती गतवर्गे कृतवती वा भगिनी?
आं महोदय।
हा हा आं भगिनी, अतः क्षम्यतां, तत्र इच्छा तावदेव भगिनी।
अस्तु महोदय,
धन्यवादः, धन्यवादः भगिनी। अस्तु, अन्य कोऽपि तत्र कर्तुम् इच्छति वा? नो चेत् अहमेव तत्र वदामि, तत्र अस्तु। हा शर्वाणी भगिनी, अस्तु, नमस्कारः भगिनी, नमस्कारः, करोतु भगिनी।
स्वाध्यायेन भाष्यादिग्रन्थेषु एवं वर्णयन्ति, प्रथमतः उद्देशः, ततः लक्षणं, ततः परीक्षा इति। उद्देशो नाम नामनिर्देशः, द्रव्यम् इति कथनं, गुणः इति कथनम्। अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते, केवलं संज्ञा उच्यते, अतः अयम् उद्देशः।
तावत्पर्यन्तं भगिनि, तावत्पर्यन्तं, हा वदतु।
वात्स्यायनमहर्षि कृतौ भाष्यम् आदिग्रन्थेषु एवं वर्णयन्ति, प्रथमतः उद्देशः इति
तत्र फुट् नोट् अस्ति, तदपि एकवारं पठतु भगिनि।
वात्स्यायनमहर्षिः गौतमप्रणीतन्यायसूत्राणां भाष्यकारः।
हा तत्र गौतममुनिः इति एव तत्र न्यायसूत्राणि लिखितवान्, तदेव तत्र मूलग्रन्थः अस्ति न्यायशास्त्रस्य, गौतममुनीनां प्रणीतं न्यायसूत्राणि। इदानीं तत्र तस्य उपरि वात्स्यायनमहर्षिः भाष्यं कृतवान्, अतः तत्र अपि तत्र अनेके तत्र ग्रन्थाः सन्ति, तत्र न्यायसूत्राणाम् उपरि तत्र भाष्यः अस्ति, वर्तिका अस्ति, तत्र टीका अस्ति, अतः तत्र तेषु एतादृशेषु ग्रन्थेषु अग्रे
एतत् वदन्ति, प्रथमतः उद्देशः, उद्देशो नाम नामनिर्देशः, नामकरणम् इति, द्रव्यम् इति एकं कथनम् अस्ति, गुणः इति एकं कथनम् अस्ति। अत्र द्रव्यं कथं ज्ञातव्यं, द्रव्यम् इति एषः इति न निरूप्यते, केवलं संज्ञा उच्यते, तस्य नाम इति उच्यते, तस्य अतः अयं नाम उद्देशः भवति।
हा अत्र अस्य भागस्य नाम अस्ति
उद्देशः,
उद्देशः प्रथमभागस्य नाम अस्ति उद्देशः। तत्र कथनं नाम किं, द्रव्यमिति कथनं नाम
कान्सेप्ट् महोदय?
हा द्रव्यमिति नामकरणं, तावदेव कथनं, व्यवहारः, एतद् एषः पदार्थः कः, एषः पदार्थः द्रव्यम् इति व्यवहारः कुर्मः, तावदेव कथनं नाम कथयति इति अस्ति खलु, तत्र डिस्क्रैब् इति नामकरणम् अत्र, तावदेव। अस्तु समीचीनं भगिनि, धन्यवादः, उद्देश नाम
धन्यवादः।
नामकरणं तावदेव उद्देशः अस्ति. अस्तु, धन्यवादः भगिनी. अस्तु, अग्रे तत्र
अहं पठामि महोदय.
हा, गीता गीता भगिनी, नमस्कारः भगिनी, पठतु भगिनी.
विमला, अहं विमला अस्मि महोदय. अस्तु अस्तु, गीता भगिनी पठति किम्?
अस्तु, गीता भगिनी पठतु भगिनी अग्रे. तत्र उद्देशभागे तत्र नामकरणमस्ति, कथं ज्ञातव्यमिति अस्ति वा गीता भगिनी? गीता भगिनी अग्रे पठति वा भवती? न श्रूयते तत्र. अस्तु, गीता भगिनी पठति वा अथवा अन्य कोऽपि पठति? भवती अग्रे पठतु तर्हि.
मम नाम विमला, अहं पठामि किं महोदय?
भवती पठितवती वा भगिनी पूर्वं?
न पठितवती महोदय.
गतवर्गे अपि
न? न, तूष्णीम् आसम्.
अस्तु भगिनि, पठतु तर्हि.
तदेव लक्षणमिति उच्यते. ततः केन वस्तुना द्रव्यं ज्ञातव्यं? गुणेन. यत्र गुणः तत् द्रव्यमिति कथनं द्वितीयं. तदेव लक्षणमिति उच्यते.
हा, तत्र अग्रे पश्यामः. तत्र द्रव्यं, कस्य पदार्थस्य नामकरणं द्रव्यमिति भवति इति तस्य विषये अग्रे पठामः. गुणेन वयं, हा, गुणेन वयं जानीमः. अस्तु, गन्धः अस्ति इति कृत्वा गन्धवती पृथ्वी इति इति लक्षणवाक्यम् अग्रे भवति. यत्र यत्र गन्धः अस्ति तत्र तस्य पदार्थस्य नाम अस्ति पृथ्वी इति अग्रे भवति. तत्र लक्षणम् इति वदामः, तत् अग्रे भवति. अतः गुणः तद् द्रव्यमिति कथनं द्वितीयं. यत्र गुणः तत् तत्र तस्य पदार्थस्य नाम अस्ति द्रव्यमिति अग्रे कथनं भवति द्वितीयम्. एतस्य नाम, तत्र एतस्य कथनस्य नाम किम् अस्ति? यत्र यत्र गुणः अस्ति तद् द्रव्यमिति
कथ्यते.
हा, एतस्य कथनस्य नाम किम्
उक्तम् इति?
न,
लक्षणम्.
तत्र प्रथमतया नामकरणं, तदनन्तरं लक्षणं. तत्र एतावत् किम् अस्ति, एतावत् उक्तमस्ति नाम श्रेणी अस्ति. श्रेणी अस्ति नाम क्लासिफिकेशन् अथवा केटगरैसेशन् अस्ति. श्रेणी, श्रेणी स्थापिता अस्ति एतावत्. तत्र पदार्थानां श्रेणी स्थापिता. तत्र द्रव्यम् इति द्रव्यमिति एकं तस्मिन् तत्र प्रथमध्या. किन्तु श्रेणी पश्यामः
इत्युक्ते द्रव्यम् इत्युक्ते उद्देशः.
एतत् एतस्य पदार्थस्य नाम द्रव्यम् इति नामकरणं यदा कुर्मः तदस्ति. सर्वम् उद्देशभागे भवति. उद्देशभागे केवलं नामकरणं भवति, पदार्थानां नामकरणम् उद्देशः भागे. तदनन्तरम् अग्रिमे भागे इति लक्षणं भवति. तत्र एषः पदार्थः कः, एषः पदार्थः द्रव्यं वा गुणः वा कर्म वा, कीदृशपदार्थः अस्य पदार्थस्य नाम किम्, अपि कथं जानीमः एषः पदार्थः एतद् द्रव्यम् एव अस्ति इति कथं जानीमः इति तत्र लक्षणं, डेफिनेशन् इति वदामः. तद् अग्रे भवति लक्षणम्. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे
अहं पठामि महोदय.
हा, अस्तु महोदय. तत्र कः वदति एकनिमिषः?
सरज, सरजः.
हा, अस्तु अस्तु, नमस्कारः महोदय.
गुणः इति पदार्थः द्रव्ये वर्तते न वा, अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षा. तया च परीक्षया विचारः परिपूर्णः भवति. तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते, न तु परीक्षाभागः. बालबोधनाय प्रवृत्तत्वात्.
तावत्पर्यन्तं वदतु महोदय.
पूर्वमुक्तमस्ति भाष्यकारः भागत्रयं वर्णयन्ति, उद्देशः, लक्षणं, परीक्षा इति. गुणः इति पदार्थः द्रव्ये वर्तते न वा, अस्ति चेत् सर्वत्र वर्तते न वा इत्यादिविचारः एव परीक्षा इति कथ्यते. परीक्षा इत्युक्ते पूर्वम् उद्देशः इत्युक्ते नामकरणम् इति वयं दृष्टवन्तः. लक्षणम् इत्युक्ते गुणेन द्रव्यं ज्ञातव्यं, तदेव लक्षणम् इति वयं दृष्टवन्तः. अधुना परीक्षायाः विषये उक्तमस्ति. गुणः इति पदार्थः अस्ति चेत् सर्वत्र अस्ति वा, द्रव्ये वर्तते वा न वा इत्यादि विचाराः एव परीक्षा इति कथ्यते.
हा, तत्र यदि गन्धं, गन्धः पृथिव्यां, समीचीनं महोदय, धन्यवादः. तत्र गन्धः पृथिव्याम् अस्ति इति यदि वदामः अथवा तत्र औष्ण्यं पृथिव्याम् अस्ति इति प्रश्नः, तत्र औष्ण्यं पृथिव्याम् अस्ति न वा इति प्रश्नः, तादृशप्रश्नः एव परीक्षा. अपि तत्र गन्धः पृथिव्याम् अस्ति चेत् केवलम् एकस्मिन् प्रदेशे अस्ति वा अथवा सर्वत्र वर्तते वा. इदानीं तत्र तत्र रक्तवर्णः इति स्वीकुर्मः, रेड् कलर् रक्तवर्णः, तत्र
क्षमतां क्षमतां, टु मच् नाय्स् प्लीस्, ऐ काण्ट् हियर्, क्षमतां.
कः करोति? अस्तु अस्तु अस्तु, धन्यवादः. अस्तु, तत्र एकस्मिन् प्रदेशे वर्तते वा अथवा सर्वत्र वर्तते वा इति, तत्र एतत् सर्वं करणीयमस्ति अस्माभिः. एतत् सर्वं परीक्षा इति वर्णयामः. हा, अस्तु. तत्र महोदय सरज सरज
परिपूर्णः भवति, अस्माकं विचारः परिपूर्णः भवनीय भवितव्यं चेत् उद्देशः ज्ञातव्यं, लक्षणं किम् इति ज्ञातव्यम्, अनन्तरं परीक्षा अपि करणीयम्.
हा, नो चेत् तत्र किं भवति,
नामकरणं न भवति
अस्ति, किन्तु तत् सत्यं न वा इति ज्ञानं नास्ति. समीचीनम्. अस्तु, अग्रे.
तर्कसङ्ग्रहपुस्तके केवलम् उद्देशभागः, लक्षणभागः एवं वर्तते, परीक्षाभागः न दृश्यते. बालबोधनाय एव तर्कसङ्ग्रहस्य रचना अभवत् इति कारणेन केवलं प्रथमभागः, द्वितीयभागः एव दृश्यते. इत्युक्ते उद्देशभागः, लक्षणभागः एव उच्यते, परीक्षा कथं करणीयम् इति तस्मिन् तर्कसङ्ग्रहे न उपलभ्यते.
हा, समीचीनं भवति महोदय, धन्यवादः.
धन्यवादः महोदय,
समीचीनम् अस्ति. अस्तु, धन्यवादः. अस्तु, तत्र अस्मिन् विषये एतावत् प्रश्नाः सन्ति वा, नाम अस्मिन् ग्रन्थे तर्कसङ्ग्रहे अपि विद्याधर्यामपि केवलम् उद्देशभागः, नामकरणम् अस्ति, तदनन्तरं लक्षणभागः अस्ति, परीक्षा इति अस्मिन् पुस्तके नास्ति. यतोहि एतत् एतस्य पुस्तकस्य उद्देशः अस्ति बालबोधनाय, बालानां बोधः भवतु इति इति आशा. अस्तु, अग्रे. तत्र अग्रे अन्य कोऽपि पठितुम् इच्छति वा?
हरि ओं महोदय, अहं पठामि.
अस्तु भगिनि, अपर्णा भगिनि, नमस्कारः, पठतु भगिनि.
नमस्कारः. बालबोधनाय प्रवृत्तत्वात् श्लोकं पठामि वा?
पठतु भगिनि.
निधाय हृदि विश्वेशं, विधाय गुरुवन्दनं, बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः. तदादौ अन्नभट्टः ग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्तपदार्थानां नाम्ना निर्दिशति द्रव्येति. अत्र अन्नभट्टः, अन्नभट्टमहोदय, सः मङ्गलाचरणं कृत्वा बालानां सुखबोधाय सरलरूपेण तर्कसङ्ग्रहम् अवगन्तुं सः एतत् लिखितवान्.
एतं ग्रन्थं लिखितवान्,
रचितवान्.
तत्र विश्वेशं हृदि निधाय, नाम देवस्य नमस्कारं कृत्वा, गुरुवन्दनं कृत्वा, तदनन्तरम् एषः तत्र सः एतस्य ग्रन्थस्य आरम्भः कृतवान्. मङ्गलाचरणं किमर्थम् इत्युक्ते तत्र समाप्तिः निर्विघ्नेन भवतु इति, तत्र मङ्गलाचरणस्य श्लोकस्य आवश्यकता इति स्थापितं श्लोकः स्थापितः अस्ति बालानां सुखबोधाय तत्र गतवर्गे वयम् उक्तवन्तः तत्र बालः कः भगिनि
छात्राः
छात्रः किन्तु सर्वे छात्राः वा अथवा तत्र
यस्य ग्रहण शक्ति अस्ति
हा तत्र
अधिकारः यस्य अस्ति
हा अधिकारः अधिकारी तत्र यस्य तत्र अधिकारः अधिकारी भवेत् तत्र बालः अथ बालः इति तत्र लघुबालकः इति न किन्तु ग्रहणधारणपटुः यः विषयान् अवगन्तुं शक्नोति अपि ग्रहणशक्ति धारणशक्ति इत्युक्ते स्मर्तुं शक्नोति हा तत्र द्वयस्य अपि अपेक्षा अस्ति तत्र ग्रहणशक्तिः धारणशक्तिः यस्य अस्ति अपि अन्यदपि वदन्ति तत्र व्याकरण अतीतः किन्तु न्यायशास्त्रे प्रविष्टः नाम यस्य व्याकरणज्ञानम् अस्ति किन्तु न्यायशास्त्रस्य ज्ञानं नास्ति सः एव बालः वयं सर्वे बालाः एव स्मः खलु तत्र किञ्चित् व्याकरणस्य ज्ञानम् अस्ति किन्तु न्यायशास्त्रस्य ज्ञानं नास्ति इदानीमेव वयं सर्वे प्रवेशं कृतवन्तः अस्तु तत्र अग्रे यदस्ति तद् एकवारं पठतु भगिनि तत्र द्रव्य इति
द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इमे सप्तपदार्थाः तत्र पदार्थोदेशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं कुतः यतः इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति अत्र लिखितं सप्तपदार्थाः सन्ति तेषां नाम अपि लिखितं
भगिनी न श्रूयते
आदौ द्रव्यं निर्दिष्टं इति कारणतः पदार्थस्य नाम निर्देशं कृतं कुतः यत्र सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति ततः नामकरणं कृतवन्तः
कुतः नाम
अत्र द्रव्यमेव
न न कुतः इति प्रश्नः अस्ति किमर्थं कुतः इति किमर्थम् अत्र पुनः प्रश्नः पृच्छतु तत्र किमर्थं किं कृतमस्ति
कुतः इत्युक्ते फ्रम् वेर्
न न न हा तत्र साधारणतया कुतः एषः बालकः कुतः आगतः इति प्रश्नः तादृशप्रश्नः भवति किन्तु अत्र अस्ति कुतः नाम किमर्थं तत्र किमर्थं किं तत्र किमर्थम् इति प्रश्नः कारणं किन्तु कस्य कारणं पृच्छति पूर्वस्मिन्
नामकरणस्य कारणं
किं भगिनि
नामनिर्देशस्य कारणं
न न न न न तत्र वाक्यं पठतु तत्र पदार्थ उद्देशे
पदार्थोद्देशः
पदार्थस्य उद्देश अथवा पदार्थानाम् उद्देशे सप्तमी उद्देशे
नामनिर्देशे आदौ द्रव्यं निर्दिष्टम्
हा अतः तत्र आदौ द्रव्यं निर्दिष्टं तत्र नव तत्र सप्तपदार्थाः लिखितानि खलु तत्र सप्तपदार्थानां तत्र नामानि लिखितानि खलु तत्र
किमर्थं द्रव्यम् आदौ एव
हा इति प्रश्नः प्रथमः
सर्वे अन्यगुणाः द्रव्यम् आश्रयन्ति तदर्थं
गीताभगिनी एकनिमिषः इदानीम् अपर्णा भगिनी वदति अतः सा वदतु अग्रे अग्रे भवती वदतु अस्तु अग्रे अपर्णा भगिनी इदानीं तत्र
आं किमर्थम् इदानीम् आगतं महोदय किमर्थं द्रव्यं प्रथमम् आगतं किमर्थम् इत्युक्ते अग्रे ये आगच्छन्ति द्रव्यम् उद्दिश्य एव तेषां लक्षणम् आयाति
न द्रव्यम् आश्रित्य एव ते तिष्ठन्ति नाम सर्वेषां पदार्थानाम् आधारः तत्र द्रव्यम् इति एव भवति द्रव्ये एव अने सर्वे पदार्थाः द्रव्ये एव तिष्ठन्ति, अतः द्रव्यम् आश्रित्य तिष्ठन्ति, अतः द्रव्यमेव आधारः भवति. द्रव्यस्य विवरणेन विना तत्र अन्येषां पदार्थानां विवरणं न कर्तुं शक्नुमः, यतोहि सः पदार्थः कुत्र अस्ति इत्युक्ते वयं न वक्तुं शक्नुमः. अतः द्रव्यस्यैव आदौ भवेत्, द्रव्यः एव आदौ भवेत् इति. अस्तु, समीचीनम् अपर्णा भगिनी, यत् पठितवती अवगमनम् अस्ति खलु?
आं महोदय, आं महोदय.
अस्तु, समीचीनम्. अस्तु, धन्यवादः. अस्तु, अग्रे कः पठितुम् अथवा का पठितुम् इच्छति? अस्तु, गीता भगिनी इदानीं पठितुम् इच्छति वा?
आं महोदय.
अस्तु,
तत्र अस्ति विशेषः, द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते, गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. यदा यज्ञदत्तः आसने वर्तते इत्युक्ते यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. तत्र आसनं यज्ञदत्तस्य भारं वहति.
हा, तावत्पर्यन्तं वदतु भगिनि.
द्रव्ये गुणः इति उच्यते, तदर्थ तस्य उदाहरणार्थं
तत्र अस्ति विशेषः, नाम विशेष किमपि विशेषः तत्र केवलं लौकिकरूपेण विशेष
तदर्थं द्रव्यः अधः वर्तते, गुणः उपरि वर्तते.
हा, तत्र तिष्ठति इति उक्तं खलु, अतः तिष्ठति नाम किं, तत्र तस्य विशेषं किम् इति अत्र वर्णितमस्ति. अतः गुणः तिष्ठति इति यदि उच्यते तर्हि तत्र द्रव्य इति सप्तमी अस्तु अस्ति खलु, अधिकरणं खलु सप्तमी. हा, अतः तत्र द्रव्ये गुणः
तिष्ठति,
अतः द्रव्यम्
अधः वर्तते,
यतोहि अधिकरणम् अपि
गुणः तस्य उपरि वर्तते, तदर्थं द्रव्यं गुणस्य भारं वहति.
हा, इति तत्र उपरि गुणः अस्ति, अधोभागे द्रव्यमस्ति, तथैव तत्र चित्रे अपि अस्ति खलु भगिनि,
तटे आसने यज्ञदत्तः उपविष्टः अस्ति, तदर्थं यज्ञदत्तस्य भारम् आसनं वहति.
आसनं वहति, इदानीं तावत् समीचीनं भगिनि. अतः तत्र यज्ञदत्तः कुत्र अस्ति? उपरि अस्ति. आसनं कुत्र अस्ति?
अधः अस्ति.
आसनम् अधः अस्ति. इदानीं तत्र अपि आसनं यज्ञदत्तस्य भारं वहति. हा, इति समीचीनं, धन्यवादः भगिनि. इदानीं
धन्यवादः.
एतत् उदाहरणं स्वीकृत्य, लौकिक उदाहरणं स्वीकृत्य शास्त्रीयविचारम् इदानीं तत्र तस्य विवरणं भवति शास्त्रीयविचारस्य. अस्तु, तत्र इदानीं तत्र अस्माकं प्रथम तत्र भावः तत्र आधार आधेयभावः, एषः भावः बहुषु बहुषु वर्तते. हा, तत्र बहुवारम् एतस्य प्रयोगं वयम् अग्रे करिष्यामः. अतः आधार आधेयभावः इति. अस्तु, तत्र अस्तु, एतावत् अनेके जनाः पठितवन्तः, तत्र अन्ये कोऽपि तत्र श्रीकृष्णमहोदय पठितुम् इच्छति वा अथवा नरसिंहमहोदय पठितुम् इच्छति वा?
मम समीपे पुस्तकं नास्ति महोदय.
अस्तु,
अग्रिमवासरे पठिष्यामि.
अस्तु,
धन्यवादः.
अस्तु,
श्रीकृष्ण पठामि वा महोदय? नमो नमः.
अस्तु, एकनिमिष भगिनि, तत्र श्रीकृष्णभगिनी महोदय पठितुम् इच्छति वा?
आं महोदय.
अस्तु, भवान् पठतु, तदनन्तरं नीता भगिनी पठतु. समीचीनं वा?
आधार आदेय भावव्यवस्थापनम् अत्रेदं कल्पयामः आसनं प्राणी इति, तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि, इयम् इयं वारं वहनस्य चिन्ता एव अधिकरणता आधारता इति वा उच्यते।
हा तावत्पर्यन्तं वदतु महोदय। अत्रेदं नाम किम्?
किं महोदय?
अत्रेदम्, अत्रेदं प्रथमपदं किमस्ति?
अत्र इदम्, अत्र इदम्,
अत्र इदम्
आसनमिति कल्पयामः चेत्
आसनम्, आसनमिति न, तत्र अत्र इदं कल्पयामः, कल्पयामः नाम इति चिन्तयामः। किं चिन्तयामः? आसनं प्राणी इति, तत्र प्राणी इति पदे तत्र ईकारः अन्ते अस्ति खलु, तत्र ह्रस्व ईकारः किमर्थमस्ति? प्राणी साधारणतया प्राणी इति दीर्घ ईकारः भवेत् खलु, किन्तु ह्रस्व ईकारः अस्ति अत्र,
नपुंसकं,
नपुंसकलिङ्गपदम् अस्ति, किमर्थम्
आसनं नपुंसकलिङ्गम्?
आसनं नपुंसकलिङ्गं, समीचीनं। हा आसनं नपुंसकलिङ्गम् अस्ति, हा समीचीनम्। अतः तत्र किन्तु तत्र प्राणी इति यस्मिन् प्राणः अस्ति सः प्राणी इनि प्रत्ययः, किन्तु तत्र गुणीवत् खलु, गुणी गुणः यस्मिन्, यस्य यस्मिन् गुणः अस्ति सः गुणी। स्त्रीलिङ्गे रूपं किं भवति? अन्य कोऽपि वदति वा? प्राणी, प्राणिनी अपि नपुंसकलिङ्गे ह्रस्वैकारः प्राणी इति। हा समीचीनम्। अतः अत्र आसनं प्राणी इति चिन्तयामः इति चिन्तनं भवतु इति उक्तम्। अस्तु श्रीकृष्णमहोदय अग्रे।
आसनम् इति चिन्तयामि अहं, किं चिन्तयामि अहं? यज्ञदत्तस्य भारं वहामि इति,
आसनं चिन्तयति, आसनं प्राणी अस्ति खलु, अतः आसनं चिन्तयति,
चिन्तयति
अहं
यज्ञदत्तस्य यज्ञदत्तस्य भारं वहामि इति चिन्तयामि,
चिन्तयति, चिन्तयति, आसनं चिन्तयति इति चिन्तयति। हा इदानीम् इयं भारवहनस्य
इदम् इयं चिन्तनम् एव अधिकरणता आधारता इति उच्यते,
इति उच्यते। इदानीं नामकरणम् अधिकरणता पर्यायपदम् आधारता, आधारता नाम अधिकरणता, एतत् किं तत्र भारवहनम् इति चिन्ता इति एतावत्। किञ्चित् अग्रे अन्यत् विवरणमपि भवति। अस्तु समीचीनं महोदय, धन्यवादः। अस्तु अग्रे तत्र धन्यवादः। तत्र का आसीत्?
अहं पठामि।
निका भगिनी, अस्तु पठतु भगिनि।
नमो नमः।
नमस्कारः भगिनि, हा पठतु भगिनि।
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति, इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इत्युच्यते। यज्ञदत्तं विहाय कश्चित् अचेतनः वक्षमाणः संख्यारूपगुण उपरि संख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयति इति आलोचयामः।
तावत्पर्यन्तं भगिनि।
अत्र एकं लौकिक उदाहरणम् अस्ति। आसने उपरि यज्ञदत्तः उपविशति। यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि। अत्र आधेयसंज्ञायाः कृते विवेचनमस्ति। यदि यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि, तत् चिन्ता एषा चिन्ता यज्ञदत्ते विद्यमाना आधेयता, आधेय इत्युक्ते किम्?
आधेय, आधेय इति तत्र आधेयः उपरि भवति सः आधेयः इति वदामः। तत्र अधिकरणम् अस्ति, अधोभागे अधिकरणम् अस्ति, उपरि
आधेय अस्ति, तत् आधेयता इत्युक्ते यज्ञदत्ते विद्यमाना अहं भारं स्थापयामि इति चिन्ता.
हा समीचीनं. तत्र या चिन्ता यज्ञदत्ते अस्ति सा चिन्ता भारं स्थापयामि इति चिन्ता या अस्ति सा चिन्ता एव इदानीम् आदेयता इति उच्यते. अग्रे किञ्चित् अपि
अत्र यज्ञदत्तः तु जीवितः किन्तु यदि अचेतनः यज्ञदत्तः तु चेतनायुक्तः किन्तु यदि कानिचन अचेतानि वस्तूनि वयं चिन्तयामः कोऽपि अचेतनः अस्ति वक्षमाणः इत्युक्ते किं महोदय?
अग्रे अग्रे अस्मिन् विषये वदामः.
ओके. अचेतनः कोऽपि तत्र अस्ति अचेतनः पदार्थ अचेतनपदार्थस्य विषये यदि वयं चिन्तयामः तर्हि गुणः द्रव्यः गुणस्य भारं वहति तथैव गुणः उपरि भवति चेत् सः गुणः अपि गुणे अपि आधेयता वर्तते. गुणः अपि अहं भारं स्थापयामि इति चिन्तयति. यः कोऽपि चिन्तयति अहं भारं स्थापयामि तस्य आधेय इति संज्ञा वर्तते.
समीचीनं भगिनि. हा उत्तमं. तत्र लौकिक उदाहरणे उपरि यज्ञदत्तः अस्ति अधोभागे आसनमस्ति. शास्त्रीय उदाहरणे किं भवति? उपरि गुणः वर्तते अधोभागे द्रव्यं वर्तते. यज्ञदन्तः यः अस्ति तस्मिन् अधेयता इति अस्ति आसने अधिकरणता इति अस्ति. अग्रे तत्र शास्त्रीय उदाहरणे गुणः आधेयः द्रव्यम् अधिकरणं द्रव्ये अधिकरणता भवति गुणे आधेयता इति भवति. तत्र चिन्तनम् इति उक्तं किन्तु तत्र अग्रे पश्यामः तत्र किमस्ति इति. अस्तु अग्रे धन्यवादाः
महोदय. पुनः द्रव्यम् अधरः तस्मिन् अधरता अस्ति गुणः
वदतु भगिनि.
भवान् एव वदतु पुनः.
समीचीनमेव भगिनि. तत्र लौकिकोदाहरणे उपरि यज्ञदत्तः अस्ति सः आदेयः आसनम् अधिकरणं. शास्त्रीय उदाहरणे तत्र द्रव्यं भवति अधिकरणं द्रव्ये अधिकरणता गुणः इति उपरि भवति गुणः इति आदेयः गुणे गुणः इति आदेयः गुणे आधेयता इति भवति. अस्तु
महोदय. आदर्शः.
नमस्कारः महोदय. वदतु महोदय.
महोदय यदि वृक्षतः एकः फलः ह्याङ्ग् स्यात् इति चिन्तयामः तर्हि आदेयता वृक्ष एव न
महोदय? तत्र भिन्नः भवति महोदय. तत्र उपरि अधः इति तादृशचिन्तनं न भवति. तत्र अवयव अवयवीभावः इति भवति महोदय. तत्र भिन्नः तत्र शरीरे भागाः भवन्ति तत्र अवयवः अवयवाः इति वदामः खलु.
अत्र मास्तु महोदय. फलं न किन्तु एकः रज्जु इति चिन्तयामः तर्हि अवयवी अवयवभावः न भवति किल?
न रज्जु तत्र रज्जु तत्र इदानीं सरल उदाहरणम् एव स्वीकुर्मः महोदय. तत्र किमपि तत्र पुस्तकम् उत्पीठिकायाम् अस्ति तत्र पुस्तकम् आदेयः भवति उत्पीठिका अधिकरणं भवति तावदेव.
अस्तु
अस्तु समीचीनम्. अस्तु अग्रे तत्र कः अथवा का पठितुम् इच्छति
महोदय? इदानीं यथा महोदयेन इदानीमेव उक्तं तर्हि उपरि इत्येव इति न तत्र मूमेण्ट् अथवा अधोभागे अपि वर्तुं शक्यते कदापि आदेयता इति एव किल?
न अग्रे पश्यामः भगिनि. तत्र कस्मिन् सन्दर्भे आदेयः अधिकरणत इति एतावत् तत्र यज्ञदत्तः अपि आसनं लौकिक उदाहरणं केवलं तत्र एतस्य तत्र विचारस्य अवगमनं भवेत् इति. किन्तु यस्य आवश्यकता साक्षात् अस्ति शास्त्रीय उदाहरणस्य एव आवश्यकता अस्ति. लौकिक उदाहरणम् एकमस्ति पर्याप्तं अन्यस्य उदाहरणेन कः लाभः? अन्येन उदाहरणेन कोऽपि लाभः नास्ति. इदानीं शास्त्रीय यः विचारः तस्य एव इदानीम् अस्माकम् अध्ययनं कर्तव्यम् अस्माभिः. अतः तत्र एव वयं गन्तुम् इच्छामः, उत्सुकः स्मः इदानीं. अस्तु अस्तु, तर्हि तत्र अग्रे कः पठितुम् इच्छति अथवा कः पठितुम् इच्छति?
अहं पठितुं प्रयत्नं करोमि.
अस्तु सुबोध महोदय, पठतु महोदय.
प्रकृतेपि द्रव्यम् अधः अस्ति, गुणश्च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता, गुणे च अधेयता अस्ति इति आयताम् आयातम्. प्रकृते अपि द्रव्यम् अधः अस्ति इति चिन्तयामः, अथो गुणः उपरि अस्ति इति उक्तः. द्रव्यम् अस्ति अधिकरणता, गुणः अस्ति
अधेयता. समीचीनं.
गुणः भवति अधेयता.
न महोदय, द्रव्ये इति पदस्य विभक्ति का
सप्तमी भवति. द्रव्ये अधिकरणता अस्ति.
हा, द्रव्ये अधिकरणता अस्ति,
गुणे अधेयता अस्ति,
आधेयता
अस्ति.
हा, तत्र द्रव्ये अधिकरणता अस्ति, गुणे आधेयता अस्ति. तत्र एतावत् चिन्तयामः, तत्र आधिकरणता इति तत्र प्रत्ययः कः कोऽपि जानाति वा? अधिकरणता इति तत्र तल्प्रत्ययः, तत्र भाववाचकः प्रत्ययः. तत्र अधिकरणता, सुन्दरः बालकः, सुन्दरता, बालकः सुन्दरः इति वदामः, तत्र विशेषणं भवति. किन्तु अस्मिन् बालके सुन्दरता इति भावः अथवा गुणः अस्ति, अतः सुन्दरता इति वदामः. तादृशी परिस्थितिः अत्रापि अधिकरणम् अस्ति. अत्र द्रव्यम् अधिकरणम् इति कृत्वा द्रव्ये अधिकरणता अस्ति. अपि तत्र यज्ञदत्तः आदेयः अस्ति, कोऽपि विशिष्टगुणः, तत्र सुन्दरः बालकः, सुन्दरता बालके अस्ति, तादृश आदेयः अस्ति यज्ञदत्तः, अतः यज्ञदत्ते आधेयता अस्ति इति भवति. गुणे आधेयता अस्ति, द्रव्ये अधिकरणता अस्ति. इदानीं तत्र आधेयता अधिकरणता इति अस्ति. इदानीम् अग्रिम यत् वाक्यम् अग्रे भवति तत्र बहु महत्त्वपूर्ण परिच्छेदम् इति भवति, परिच्छेद अग्रे भवति. धन्यवादः महोदय.
धन्यवादः.
अस्तु, तत्र अग्रे कः अथवा कः पठितुम् इच्छति?
महोदय, एकवारं पुनः प्रत्ययस्य नाम वक्तुं शक्यते वा?
हा, तल् प्रत्ययः भगिनि.
तल्.
हा, तल्.
धन्यवादः.
हा, समीचीनं भगिनि. अस्तु,
आयातम् इत्युक्ते अवगन्तव्यम् इति
वा? आयातम्
अवगन्तव्यम् इति वा?
न,
ज्ञातव्यम् इति.
आगतम् आगतम् इति चिन्तयतु. आयातम् आगतम् इति आगतम्. अत्र अन्य कोऽपि इदानीं तत्र पठितुम् इच्छति वा? तत्र सुकन्या भगिनी पठितुम् इच्छति वा?
नमस्कारः महोदय.
नमस्कारः भगिनी.
आसने अधिकरणता वर्तते इत्युत
इति अमुम्
इत्यमुं विषयं लघुना उपायेन कथं निरूपयामः? तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति. अतः आसननिष्ठा अधिकरणता, आसनवर्तिनि अधिकरणता इति वाक्यद्वयं जातम्.
तावत् पर्यन्तं वदतु भगिनि. इदानीं
आसने अधिकरणता वर्तते इति इत्युमं विषयं लघुना उपायेन कथं निरूपयामः? आसने एतद् गुणम् अस्ति, अधिकरणता इति अस्ति इति कथं वयं प्रूव् कर्तुं शक्नुमः इति
कथं भवति
उपायेन
अमुम् इत्युक्ते अमुम्
अदश् शब्दः खलु
हा अदश् शब्दः समीचीनं
तत्र निष्ठः इति वर्ति इति
निष्ठ इति
निष्ठ इति वर्ति इति पदद्वयम् उपकरोति निष्ठावर्ति इति
तत्र निष्ठ इति एकं पदं वर्ति इति अन्यत् पदं तत्र अग्रे अग्रिमे वाक्ये तत्र तत्र उदाहरणमस्ति
अतः आसननिष्ठा अधिकरणता आसनवर्धिनी अधिकरणता इति वाक्यद्वयं जातम्
हा तत्र आसननिष्ठा अधिकरणता नाम आसने अधिकरणता अस्ति इति साधारणतया वदामः किन्तु तस्मिन् स्थाने इदानीं किं वदामः आसननिष्ठा अधिकरणता इति वदामः आसननिष्ठा अधिकरणता इति वाक्यस्य अर्थः कः आसने अधिकरणता अस्ति अथवा अन्यरीत्या कथं वदामः
आसननिष्ठा अधिकरणता अस्ति
इति एकम् अग्रिमम्
आसनवर्तिनी अधिकरणता
हा तत्र आसनवर्तिनी अधिकरणता इत्युक्ते आसननिष्ठा अधिकरणता इत्युक्ते आसने अधिकरणता
अस्ति
हा इद् किन्तु इदानीं तत्र निष्ठा अपि वर्ति तत्र वर्ति इति पुनः तत्र इनि प्रत्यय इव तत्र आसने वर्ति वर्तिनी इति स्त्रीलिङ्गरूपम् अतः तत्र आसनवर्तिनी अधिकरणता अधिकरणता स्त्रीलिङ्गे अस्ति इति कृत्वा आसनवर्तिनी इति अस्ति आसनवर्तिनी अधिकरणता अथवा आसननिष्ठा अधिकरणता इति ये तत्र अग्रे पश्यामः तत्र एतद् विवरणार्थं यन्त्राणि अपेक्षितानि सन्ति यन्त्राणि नाम डिवैसस् तत्र निष्ठावर्ति इति बहुवारं तस्य उपयोगः भवति अग्रे तत्र यज्ञदत्तनिष्ठा आदेयता निरूपित इति दीर्घदीर्घवाक्यानि वयं कुर्मः रचयामः तत्र निष्ठनिष्ठवर्ति वर्ति आश्रयः आश्रयः इति बहु बहु दीर्घवाक्यं यतोहि तेन एव सम्यक्तया तत्र प्रिसिशन् इति वदामः सम्यक्तया निरूपणं कर्तुं शक्नुमः लक्षणं सर्वम् एतद् विवरणं कर्तुं शक्नुमः तत्र अतः निष्ठा अपि वर्ति इति तत्र बहु उपयोगकरं भवति अस्तु तत्र
यन्त्रं वा महोदय
यन्त्रं नाम डिवैस् इति भगिनि डिवैस् भवति
न महोदय निष्ठा वर्ति इति यन्त्रं वा
इति
निरूपणं कर्तुं
तस्य प्रयोगं वयं कुर्मः इति कृत्वा यन्त्रम् इति मया उक्तं तावदेव
अस्तु
यन्त्रं नाम तस्य उपयोगेन वयम् अनेकानि वाक्यानि रचयामः तावदेव
अस्तु महोदय
हा अस्तु
धन्यवादः
समीचीनं धन्यवादः भगिनि अस्तु अग्रे कः पठितुम् इच्छति अथवा कः पठितुम् इच्छति अस्तु तत्र
नमस्ते महोदय
हा
अत्र वर्ति इत्युक्ते किं
वर्तते वर्तते इति अर्थः
एवं
तत्र आसने अस्ति का अस्ति आसने अधिकरणता अस्ति अतः अधिकरणता कीदृशी अधिकरणता आसनवर्तिनी इति तत्र यस्मिन् यस्मिन् इति तत्र विद्यार्थी यस्मिन् विद्यायाः अर्थः अस्ति सा विद्यार्थी
यत्र वर्तते इति वर्ति
हा इति समीचीनं भगिनि तदेव अस्ति अस्तु
धन्यवादः
धन्यवादः अग्रे तत्र कः अथवा का पठितुम् इच्छति अस्तु
क्षम्यताम् अहम् अधुना एव जायिन् कृतवान् पेज् नम्बर् किमस्ति
तत्र यत्र चित्रमस्ति महोदय
पीडिएफ् संख्या अस्ति पञ्च पीडिएफ् यदि भवान् पश्यति विद्याधारी तत्र विद्याधरी पीडिएफ् मध्ये पुटसंख्या पञ्च
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति
न अग्रिमपुटे अग्रिमपुटे महोदय अग्रिमपुटे
तत्र निष्ठ इति वर्ति
हा तदपि समाप्तं तदनन्तरं तत्र आधेयत
धन्यवादः तत्र आधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः साकाङ्क्षः इत्यस्य कः अर्थः यं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति यथा रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते
हा तावत्पर्यन्तं वदतु महोदय
अत्र आधेयता अधिकरणता प्रतियोगी इत्यादयः शब्दाः उच्यते तत्र आधेयता इति वदामश्चेत् कस्य आधेयः इति प्रश्नम् उदेति प्रश्नम् उदेति
तत्र समीचीनं तत्र अस्ति चेत्
इति प्रश्ने अधिकरणता ससम्बन्धिका पदम् अस्ति आधार आधेयता अधिकरणता इति ससम्बन्धिकपद शब्दाः
शब्दद्वयम् अस्ति हा तत्र उदाहरणार्थं
उदाहरणार्थं यदि वयं रामः पुत्रः इति वदामश्चेत् कस्य पुत्रः रामः इति प्रश्नम् उदेति एव
प्रश्नः उदेति
उत्तरं दशरथः इति वयं वदामः
किन्तु कोऽपि पुत्रः इति वदामश्चेत् तत्र प्रश्नः अथवा अस्माकं जिज्ञासा ज्ञातुम् इच्छा भवति किं ज्ञातुम् इच्छा भवति अस्माकं सः कस्य पुत्रः नाम पिता कः अथवा माता का इति जिज्ञासा अस्माकं भवति अतः तत्र तादृश तत्र पुत्रः अस्ति चेत् माता अथवा पिता अथवा पुत्री अस्ति चेत् माता अथवा पिता इति तत्र तादृशपदद्वयं किं वदामः ससम्बन्धिकाः शब्दाः इति तत्र तयोः मध्ये सम्बन्धः अस्ति अथवा साकाङ्क्षा अस्ति स नाम किं तत्र ससम्बन्धिकाः अस्ति अथवा साकाङ्क्षाः अस्ति तत्र सा इति द्विवारं किमर्थम् आगतं ससम्बन्धिकाः इति
म्यूचुवल्
न स इति द्विवारं किमर्थं कोऽपि अन्य कोऽपि वदति वा
सः बहुव्रीहि
हा तत्र तेन सह इति नाम सम्बन्धेन सह तत्र अथवा सम्बन्धिकः सः अथवा आकाङ्क्षया सह अस्ति इति कृत्वा साकाङ्क्षाः पदार्थाः नाम आकाङ्क्षा अस्ति आकाङ्क्षया सह अस्ति नाम अस्माकं जिज्ञासा अस्ति किम् आकाङ्क्षा नाम ज्ञातुम् इच्छा तत्र एक्स्पेक्टेशन् तत्र इच्छा जिज्ञासा किम् अन्यः तत्र महोदय तत्र यं श्रुत्वा इति वाक्यं पुनः एकवारं पठित्वा वदतु तत्र
यं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति
हा तत्र हा साकाङ्क्षः इत्यस्य कः अर्थः
साकाङ्क्षा इत्यस्य पदस्य अर्थः यं पदं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति प्रश्नं उदेति मनसि जिज्ञासा
यदा यदा तत्र तादृशप्रश्नः उदेति तदा एव तत्र साकाङ्क्षः इति वदामः खलु तत्र पुत्रः इति अस्ति चेत् पुत्रः साकाङ्क्षपद शब्दः यतोहि पुत्रः इति श्रवणेन वयं पिता कः अथवा माता का इति चिन्ता भवति अतः तत्र साकाङ्क्षः शब्दः इति भवति समीचीनं धन्यवादः महोदय धन्यवादः अस्तु अग्रे तत्र अन्य कोऽपि पठितुम् इच्छति वा तत्र कल्याणी भगिनी पठितुम् इच्छति वा अथवा तत्र
अहं पठितुम् इच्छामि महोदय.
अस्तु भगिनि, पठतु भगिनि.
अत्र चित्रं दत्तमस्ति, रामः पुत्रः. रामे पुत्रत्वं विद्यते, रामः पुत्रत्वं, कस्य पुत्रः इति एकः प्रश्नः उदेति. तस्य विषये, अतः पुत्रत्वं, पितृत्वं, भार्यात्वम् इत्यादयः ससम्बन्धिकाः पदार्थाः, तथा एव आधेयता, अधिकरणता इत्यादयः अपि ससम्बन्धिकाः सम्बन्धिकाः. यज्ञदत्तः आधेयः इत्युक्तौ कस्य इति जिज्ञासा भवति. आसनम् अधिकरणम् इत्युक्तौ कस्य इति जिज्ञासा भवति. अतः एते अपि आधेयता, अधिकरणता इत्यादयः ससम्बन्धिकाः. अन्यं पदार्थं सर्वदा अपेक्षन्ते.
हा, समीचीनं. तावत्पर्यन्तं पठतु भगिनि, वदतु भगिनि.
अत्र पुत्रत्वं, पितृत्वं, भार्यात्वम् इत्यादयः ससम्बन्धिकाः पदार्थाः. पुत्रः इति विषयः भवति चेत् तत्र पिता, माता इति अपि तत्र निश्चयेन भवितव्यम्. अतः पुत्रः पितुः सम्बन्धः अस्ति, माता सह पुत्रस्य सम्बन्धः अस्ति, सो त्रयोः अपि ससम्बन्धिकाः पदार्थाः. पुत्रं विना अन्यः भवितुं
एकस्य श्रवणेन अन्यस्य जिज्ञासा भवति अस्माकं मनसि.
तथा एव आधेयता, अधिकरणता इत्यादयः अपि ससम्बन्धिकाः. एकं विना अन्यस्य अपि सम्पूर्णता न भवति. आधेयं
सम्पूर्णज्ञानं न भवति, सम्पूर्णज्ञानं न भवति.
यज्ञदत्तः आधेयः इत्युक्तौ सति कस्य इति जिज्ञासा भवति. सो आधेयः इति एक
पदमस्ति. यदि वदामः यज्ञदत्तः आधेयः इति वदामः, तत्र अस्माकं मनसि कः प्रश्नः उदेति?
आधारः कः इति अस्माकं जिज्ञासा भवति, सन्देहः भवति. आसनम् अधिकरणम् इत्युक्तौ सति कस्य इति जिज्ञासा भवति, कस्य अधिकरणम् इति जिज्ञासा भवति. अतः एते अपि आधेयता, अधिकरणता इत्यादयः ससम्बन्धिकाः. अन्यं पदार्थं सर्वदा अपेक्षन्ते, सो सर्वदा ते युगलरूपेण एव सम्पूर्णता प्राप्नोति. एकं चेत् तत् सम्पूर्णार्थं न ददाति इति.
समीचीनं भगिनि, समीचीनम्. अतः तत्र सम्पूर्णं न भवति तत्र इति एव तस्य व्यवहारं वयं निरूपितम् इति पदं स्वीकृत्य कुर्मः. समीचीनम्, अस्तु, धन्यवादः भगिनि. धन्यवादः. अस्तु, तत्र अग्रे तत्र श्रीकृष्णन् प्रताप् महोदय, प्रताप् महोदय पठितुम् इच्छति वा?
महोदय क्षम्यतां, निरूपितं नाम एकवारं वक्तुं शक्नोति?
अग्रे 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 अग्रिमे पुटे एव निरूपितम् इति तस्य विवरणमेव भवति महोदय अग्रे. धन्यवादः. हा हा हा, तद् सः एव इदानीम् अग्रिमविषयः. अस्तु, तत्र अस्तु, तत्र अन्य कोऽपि अस्तु, तत्र आदर्श महोदय गतवर्गे पठितवान् खलु भवान्?
आं महोदय, अहं पठितवान्.
अस्तु अस्तु अस्तु, योगेन्द्रमहोदय पठितुम् इच्छति वा? अस्तु,
अहं पठामि.
अस्तु, योगेन्द्रमहोदय पठतु महोदय. अग्रिमपुटे तत्र
निरूप्य निरूपकभावः
चित्रं चित्रं महोदय तत्र उपरि चित्रमस्ति, आधेयता इति सर्वम्.
आधेयता, आधेयः यज्ञदत्तः.
हा, यज्ञदत्तः आधेयः अस्ति इति कृत्वा, इति कृत्वा यज्ञदत्ते किम् अस्ति?
आधेयता अस्ति.
आधेयता अस्ति, तत्र त्वम् इति अस्ति, त्वं नाम किम्?
त्वं नाम,
हा, तत्र सुन्दरः बालकः इति यदि वदामः, तत्र बालके सुन्दरता
अस्ति,
एकं रूपम् अस्ति, अथवा सुन्दरत्वम् अस्ति इति अपि वक्तुं शक्नुमः. सुन्दरता इति समानवाचकपदं सुन्दरत्वम्, अतः आधेयता यज्ञदत्ते अस्ति, अथवा आधेयत्वं यज्ञदत्ते अस्ति. इदानीम् अग्रे
आसने, आसने अधिकरणत्वम् अस्ति वा अधिकरणता अस्ति?
हा, यतोहि आसनम् अधिकरणम्
समीचीनं
समीचीनं महोदय. अस्तु अग्रे तत्र
चित्रसङ्ख्या पञ्चः तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपक इति उच्यते.
हा निरूपकः इति उच्यते, तत्र निरूपयति, निरूप्यः निरूपकः इति तत्र अग्रे पश्यामः. तत्र अधोभागे अस्ति, तत्र किमस्ति आदेयता
निरूपकः अधिकरणता
अधिकरणतां निरूपयति. अपि विपरीतदिशि अपि गन्तुं शक्नुमः, अधिकरणता अपि निरूपकः भवति, अधिकरणता अपि आदेयतां निरूपयति इति. तत्र एतावत् किञ्चित् अवगमनं प्रायशः अस्ति, किन्तु अग्रे तत्र निरूपकः इत्यनेन तत्र कः नाम सम्पूर्णः सम्पूर्णज्ञानं भवति, नाम आदेयता केवलं तस्य ज्ञानमस्ति चेत् सम्यक्तया न जानीमः, किन्तु अधिकरणता अपि जानीमश्चेत् तत्र पूर्णज्ञानं भवति. एकं जानीमश्चेत् अन्यस्य अपेक्षता अस्ति. अतः तत्र अस्मिन् उदाहरणे आदेयता अपि निरूपकः भवितुम् अर्हति, अधिकरणता अपि निरूपकः भवितुम् अर्हति. किन्तु अग्रे पश्यामः, तत्र सर्वदा एतादृशी स्थितिः नास्ति, किन्तु निरूपकः निरूप्यते इति अस्ति, तद् अग्रे पश्यामः. किन्तु एतावत् तत्र यद् वयं दृष्टवन्तः आदेयता तत्र यज्ञदत्तनिष्ठ आदेयता अपि तत्र आसननिष्ठ अधिकरणता इति तत्र उदाहरणानि स्वीकृत्य तत्र प्रथमे पुटे तत्र गन्धगुणः द्रव्ये अस्ति इति तत्र तत् स्वीकृत्य शीघ्रतया तत्र एकमेकं वदामः. तत्र अस्तु, तत्र सुधा भगिनी, गन्धः पृथ्वी, तत्र गन्धः कः पृथ्वी का इति वदतु.
गन्धः अस्ति
अधिकरणं वा
आदेयता पृथ्वी
अस्ति, आदेयता गन्धे आदेयता गन् अतः गन्धनिष्ठ आदेयता
गन्धनिष्ठ आदेयता
पृथ्वीनिष्ठ
पृथ्वीनिष्ठ अधिकरणता.
हा पृथ्वीनिष्ठ अधिकरणता समीचीनम्. अस्तु अग्रे तत्र के वि इति अस्ति लिखितम् अस्ति, तत्र द्वितीय उदाहरणं स्वीकरोति वा
अस्मि के वि अस्मि.
नमस्कारः महोदय,
के वि पर्याप्तं
पर्याप्तम् अस्तु महोदय. अस्तु तत्र अस्तु शैत्यमपि जलं स्वीकृत्य वदतु महोदय. शैत्यम्
इति आधेयता, जलम् इति अधिकरणता.
हा जलम् इति अधिकरणं, शैत्यम् इति आदेयः. शैत्यनिष्ठ
शैत्यनिष्ठा आधेयता, जलं निष्ठा अधिकरणता.
अधिकरणता समीचीनम्. अस्तु अग्रे तत्र चन्द्रमूर्ति चन्द्रमती हा चन्द्रमती भगिनी
नमस्ते. नमस्ते
भगिनी. हा तृतीयम् औष्ण्यम् अपि तत्र तेजः इति स्वीकृत्य
औष्ण्यम् आधेयता औष्ण्यम्
आधेयः
तेजः
अधिकरणम् अधिकरणम्
अधिकरणम्
औष्ण्यनिष्ठ किम् अस्ति
औष्ण्यनिष्ठ आधेयनिष्ठ
औष्ण्य
आधेयता तेजनिष्ठा अधिकरणता
अधिकरणता समीचीनम्. अस्तु अग्रे तत्र सूर्यकुमारी भगिनी इदानीं तत्र स्पर्शः वायुः
वायुः अधिकरणता
वायु अधिकरणम् अतः वायुनिष्ठ
वायुनिष्ठ अधिक अधिकर
अधिकरणता
अधिकरणता स्पर्श आदेयतम्
स्पर्शनिष्ठ आदेयत अथवा आदेयत्व समीचीनं भगिनि समीचीनं अस्तु अस्तु तत्र तावत् अद्य कृतवन्तः इदानीं तत्र अग्रिमे वर्गे तत्र आधारादेयभावः अद्य तत्र कः इति दृष्टवन्तः अग्रिमे वर्गे तत्र निरूप्य निरूपकभावः कः इति पदा पश्यामः तदनन्तरं तत्र एतत् स्वीकृत्य इदानीमेव तत्र दीर्घवाक्यं रचितुं शक्नुमः अतः अग्रिमे वर्गे दीर्घवाक्यानि आगच्छन्ति अस्तु
अस्तु महोदय एकः प्रश्नः अस्ति निष्ठ इत्युक्ते प्रापर्टि इन् आङ्ग्लभाषा निष्ठ
निष्ठ निष्ठ नाम अस्ति इति यत्र अस्ति तत्र निष्ठा यज्ञदत्ते अस्ति इति कृत्वा यज्ञदत्तनिष्ठा इति प्रयोगः भवति
आङ्ग्लभाषायां प्रापर्टि समानपदं
प्रापर् तत् नास्ति महोदय
नास्ति
तत्र यस्मिन् अस्ति तस्मिन् पदस्य अनन्तरं निष्ठ इति स्थापयामः तावदेव उत्पीठिकायां उत्पीठिकानिष्ठ पुस्तकं नाम पुस्तकम् उत्पीठिकायाम् अस्ति तावदेव
धन्यवादः महोदय
अतः तत्र केवलं सप्तमी सूचनम् इति अधिकरणं सूचयति इति चिन्तयतु तावदेव अन्यप्रश्नः
प्रश्नः अस्ति अत्र आधारता अधिकरणता इति किमर्थं स्त्रीलिङ्गे वदामः
न केवलं प्रत्ययस्य आधेयता अधिकरणता इति अथवा आधेयत्वम् अधिकरणत्वमपि तत्र भाववाचकपदम् इति तत्र नपुंसकलिङ्गे अपि भवति स्त्रीलिङ्गे अपि भवति
अस्तु पुल्लिङ्गे न भवति वा
पुल्लिङ्गे तत्र मया न ज्ञातं कोऽपि जानाति वा तत्र भाववाचकपदं तल्प्रत्ययस्य पुल्लिङ्गरूपम् अस्ति वा तत्र
न न न ता केवलं स्त्रीलिङ्गे त्वं केवलं नपुंसकलिङ्गे
हा इति एव मम ज्ञानं
गुणः सर्वदा स्त्रीलिङ्गं
हा इति एव तत्र मया कदापि न श्रुतं तत्र पुल्लिङ्गरूपं धन्यवादः अतः तत्र केवलं
दलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति
हा 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 किन्तु अन्यः प्रत्ययः अस्ति वा येन तत्र पुल्लिङ्गरूपं भवति इति प्रश्नः किन्तु प्रायशः नास्ति खलु
अस्तु महोदय अहं गतवर्गे एकः प्रश्नः अस्ति सप्तपदार्थाः इति वयं पठितवन्तः तत् सप्तपदार्थाः कथं निर्माणं कृतवन्तः द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति वयम् अग्रे पठिष्यामः
पठिष्यामः महोदय पठिष्यामः विवरणं कुर्मः अपि तत्र केवलं सप्तपदार्थाः एव सन्ति वा इति न वा इति अपि प्रश्नः भवेत् खलु अतः ते वदन्ति सप्तपदार्थाः एव सन्ति इत्युक्ते यद्यत् यत्किमपि लोके अस्ति तत् सर्वम् एषु पदार्थेषु अन्तर्भूतम् अस्ति इति अतः तत्र परीक्षा करणीयम् अस्माभिः तत् सत्यं वा न वा इति
अस्तु अस्तु
हा किन्तु पदार्थः के इति प्रथमतया ज्ञातव्यं खलु
आम् आम्
हा तत्र अतः पदार्थः के इति प्रथमतया तस्य विवरणं नामकरणं तदनन्तरं दर्शनं तदनन्तरं वयमेव स्वयं परीक्षां कुर्मः अस्तु एतावत् एतत् वयं ज्ञातवन्तः एतत् सत्यम् अस्ति न वा इति अस्माकं तत्र यदि कार्यम् अस्ति तत् कृत्वा एव तत्र परिपूर्णज्ञानम् अस्माकं भवति
अस्तु अस्तु महोदय अत्र
यथा विज्ञानम् इति वदामः सैन्स् इति वदामः खलु तत्र हैपोथिसिस् अस्ति डेफिनेशन् अस्ति किन्तु तदनन्तरं प्रमाणम् आवश्यकं प्रमाणं किम् इति तस्यापि तत्र चर्चा भवेत् खलु कथम् एतत् ज्ञानं समीचीनं ज्ञानम् इति तदपि ज्ञातव्यं खलु हा एतत् सर्वं कुर्मः तत्र के पदार्थाः सन्ति तेषां लक्षणं किं प्रमा तत्र कथं ज्ञानं किं ज्ञानं समीचीनं ज्ञानं कथं जानीमः एतस्य ज्ञानस्य आधारं ज्ञानस्य आधारं कर्तुं शक्नुमः तत्र ज्ञानं समीचीनम् इति तत्सर्वं पश्यामः, तदनन्तरं वयमेव स्वयं तत्र परीक्षां कर्तुं शक्नुमः.
क्षमताम्
महोदय. अस्तु राजा महोदय पठ वदतु, तदनन्तरं तत्र अन्य कोऽपि सा उक्तवती. तदनन्तरम्
अत्र गुणः इति एकः पदार्थः अस्ति, द्रव्यम् इति अपि एकः पदार्थः अस्ति. वयं पठितवन्तः द्रव्ये गुणः अस्ति इति, सः एव गुणः वा पदार्थः अपि सः एव गुणः?
गुणः अपि एकः पदार्थः, किन्तु द्रव्ये एव सर्वे पदार्थाः तिष्ठन्ति. तत्र अग्रिमे पुटे तत्र पुटसङ्ख्या अस्ति, तत्र हा अश् तत्र पेज् 8 पश्यतु, तत्र कुत्र कुत्र अस्ति इति तत्र दर्शितमस्ति महोदय.
द्रव्ये सप्त आल् पदार्थाः,
अतः एव द्रव्यं प्रथमतया स्थापितम्
अस्ति.
द्रव्यम् अधिकरणम् अस्ति, सर्वेषां पदार्थानाम् अधिकरणं द्रव्यम् अस्ति इति एव तत्र स्थापितमस्ति द्रव्यं प्रथमम्.
अस्तु महोदय.
अस्तु, अन्यप्रश्नः आसीत् तत्र
महोदय. पितृत्वं भार्यात्वम् इति अस्ति खलु, तत्त्वम् इति तल् प्रत्ययं कारणतः वा उपयोगं
कृतं? सत्यं भगिनि, भाववाचकः सत्यं भगिनि.
ओके, धन्यवादः धन्यवादः.
हा सत्यं सत्यं भगिनि. अस्तु, के वि महोदय.
अहं वदामि, यथा वदामि कथयामि. गन्धः आदेयमस्ति, आदेयः अस्ति, गन्धः आदेयता अस्ति, तत्र आदेयत्वम् अस्ति.
तत्र गन्धे गन्धे आदेयता अस्ति अथवा आदेयत्वम् अस्ति, अथवा गन्धनिष्ठ आदेयत्वम् अथवा गन्धनिष्ठ आदेयता इति अग्रे अस्माकं विवरणं भवति, तादृशं वर्णनं वयं कुर्मः.
एवं गन्धे वर्ति आदेयता
शक्नुमः. समीचीनं, तत्र गन्धवर्ति आधेय, तत्र गन्धवर्ति आधेय, तत्र किं भवति? गन्धवर्ति
गन्धवर्ति आधेय
आधेयत्वम् अथवा गन्धवर्तिनी आधेयता
आधेयता. ओके ओके ओके, थैंक यू, धन्यवाद धन्यवाद.
अस्तु,
मम प्रश्नः.
अस्तु अस्तु, प्रथमतया तत्र का उक्तवती प्रथमतया? भगिनि वदतु भगिनि.
प्रश्नद्वयम् अस्ति तत्र. निष्ठा वर्ति पर्यायवाचकपदानि वा?
सत्यं भगिनि, अर्थभेदः नास्ति.
अस्तु, पुनः उत्पीठिकपुस्तक उदाहरणद्वारा पुनः वदतु. उत्पीठिकनिष्ठपुस्तकम्,
हा उत्पीठिकानिष्ठपुस्तकम् अथवा उत्पीठिकावर्तिपुस्तकम्
इत्युक्ते फौण्डेशन्.
हा उत्पीठिकायां पुस्तकम् अस्ति इति तावदेव.
उत्पीठिकवर्ति पुस्तकम् अस्तु,
अथवा तत्र लेखनी अस्ति, उत्पीठिकायां लेखनी अस्ति चेत् तत्र उत्पीठिकावर्तिनी लेखनी, यतोहि तत्र वर्ति इति पुनः गुणी इति तत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे भवति, अतः उत्पीठिकावर्तिनी लेखनी लेखनी इति भवति.
धन्यवादः.
तु निष्ठा वर्ति समानार्थकपदं पदद्वयम्.
अस्तु, धन्यवादः.
समीचीनं, धन्यवादः. अस्तु, नरसिंहमहोदय.
आं महोदय, तत्र व्याकरणशास्त्रं तर्कसङ्ग्रहमध्ये कोऽपि सम्बन्धः अस्ति वा? तत्रापि कोऽपि निष्ठा इति संज्ञा अस्ति व्याकरणशास्त्रे, अत्रापि निष्ठा?
न न महोदय, तत्र प्रायशः तत्र सूक्ष्मसम्बन्धः भवेत्, किन्तु तत्र तावदेव अस्ति. तत्र माया नैयायिकानां चिन्तनं भिन्नम् अस्ति, वैयाकरणानां चिन्तनं भिन्नम् अस्ति महोदय.
धन्यवादः
धन्यवादः, नमस्कारः. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा?
महोदय एकवाक्यं वदामि, साधु वा न साधु इति वदन्तु. रश्मयः रश्मयः सूर्यस्य गुणः वा?
न न न न रश्मयः अस्तु, रश्मि इति हा अस्तु, तत्र अवयवः इति एव अहं चिन्तयामि महोदय. इदानीम् अग्रे पश्यामः पुनः तत्र यदा वयं तत्र कस्य वर्णनं कुर्मः तत्र तेजस्य तेजः अस्ति खलु, तस्य वर्णनं यदा कुर्मः तदनन्तरं पुनः अस्मिन् प्रश्ने चिन्तनं कर्तुं शक्नुमः.
अस्तु महोदय, धन्यवादः.
इदानीम् इदानीं तत्र अवयव अवयवीभावः इति चिन्तयामि महोदय.
अवयव अवयविभावः नाम तदपि गुणः द्रव्ययोर्मध्ये एव भवति वा?
न, अवयव अवयव अवयविभावः भिन्नः अस्ति महोदय, गुणः मध्ये भावः भिन्नः अस्ति, तत्र पश्यामः.
अस्तु महोदय.
हा तत्र सम्बन्धः समानः भवति किन्तु तत्र भावः भिन्नः इति.
अस्तु महोदय, धन्यवादः.
हा नमस्कारः. अस्तु, अन्य कोऽपि प्रश्नः? एतावत् तत्र वयं यत् गतवर्गे पठितवन्तः तदेव पठितवन्तः अग्रे अद्यापि, यतोहि तत्र अस्मिन् विषये तत्र अनेके प्रश्नाः स्युः, तत्र सर्वम् इदानीं द्विवारं यदा यदा पठामः तत्र स्पष्टं तत्र विषयः स्पष्टः भवति इति चिन्तनं तावदेव. अतः तत्र अपि तत्र हा प्रथम एतावत् तत्र वयं केवलं तत्र किं तत्र आधारादेयभावः इति एव तत्र ज्ञातवन्तः. अग्रिमवर्गे तत्र निरूप्य निरूपकभावः इति अपि जानीमः. तदनन्तरं तत्र साक्षात् तत्र गुणानां नामकरणं सर्वम् अग्रे भवति. अतः तत्र किन्तु आधारादेयभावः निरूप्य निरूपकभावः तत्र महत्त्वपूर्ण विषयाः भवन्ति. अस्तु, तर्हि अन्य कोऽपि प्रश्नः अस्ति वा?
आम् महोदय, पुनः तत्र वयं वक्तुं शक्नुमः पुस्तकस्य विशेषणम् उत्पीठिकनिष्ठं पुस्तकं विशेष्यम् उत्पीठिकनिष्ठं विशेषणं वा?
पुनः भगिनी पुनः प्रश्नं पृच्छतु.
तत्र उत्पीठिकनिष्ठं पुस्तकम् इत्युक्ते पुस्तकं विशेष्यम् उत्पीठिकनिष्ठं तस्य विशेषणम्.
हा सत्यं भगिनी, सत्यं सत्यं. अतः तत्र विशेष्यं पुस्तकं विशेषणं तत्र उत्पीठिकानिष्ठम् इति सत्यं भगिनि, तत् समीचीनं.
धन्यवादः.
समीचीनं भगिनि. अस्तु, अन्य कोऽपि प्रश्नः? अस्तु, तर्हि विरमामः. अग्रिमे वर्गे मिलामः. तत्र पुनः तत्र अस्मिन् सप्ताहे अपि तत्र पुनः तत्र क्विज् इति रूपेण तत्र प्रायशः अष्ट अथवा नवप्रश्नाः भवन्ति. तत्र केवलं तत्र सप्ताहपर्यन्तं तत्र अस्मिन् विषये सर्वे चिन्तनं कुर्वन्ति न वा इति न जानामि, किन्तु यदि क्विज् अस्ति चेत् किञ्चित् चिन्तनं भवति इति कृत्वा तावदेव. तत्र तस्य तत् करणीयम् इति किमपि नास्ति, नियमः नास्ति, किन्तु यदि कर्तुं शक्नुवन्ति समीचीनम्. अस्तु, तर्हि सर्वेभ्यो नमः, धन्यवादः. अग्रिमवर्गे
नमस्कारः.